अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः स च भुवा व्रजद्वजो न पप्तन्वस्मनस्परिश्रवस्य भो हृषे एवन्दामनर्षदाः अधस्मान उदवता सजोषसो रथं देवासो अभिभिक्षो वा जजम् यदा शभः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्दपाणिभिः उतस्य न इन्द्रो विश्वजर्षडिर्दिवशर्धेन मारुतेन सुक्रतोः अनुनुष्ठात्यवृकाभिरोतिभिरथम् महे सनदेवाजसातये उतस्य देवो भुवनस्य सक्षडिस्त्वष्टाग्नाभिः सजोषा जोजुभद्रथम् इळा भगो बृहद्दिवोतरोदसी पूषा पुरम् धिरश्विनावधापति उतत्ये देवी सुभगे मिथो दृशोषासा नग्ना जगतामपि जुवा स्तुषे यद्वाम् पृथिविनव्यसा वचस्थातुश्च वजस्त्रिवया उपस्तिरे उत वशंसमुषिजा विवश्मस्य हिर्बुद्ध्यो ओज एकपादुत त्रितरुभक्षाः सविता च नो दधे पान्नपा दाशु हेमा धिजाशमे एतावो भस्म्युद्यता जजत्रा अरक्षन्नाज भो नव्यशेषम् श्रवस्य वो वाजम् च कानाः सप्तिर्नरथ्यो अहधीतिमश्याः